उद्धृत्याहवनीयं पूर्णाहुतिं युहोत्यन्नादम्ब एतं जनयत आत्मनो यदग्निं तस्मा एतदन्यमपि दधाति यथा वत्साय वाजाताय तरुण यवाकुमाराय स्तनमपि दध्या देवमस्मा एतदन्यमपि दधाति तेन शान्तः प्रीत उत्तराणि हवीगुष्युपर् मते श्रप्यमानानि शश्वद्धाद्भर्युम्ब यजमानं वा प्रदहेद्यदस्मिन्नेतामाहुतिन्न जुहुयोस्तौ ह्यस्य नेदिष्ठमिव चरतः तां वै पूर्णाहुतिं जुहोति सर्वं वै पूर्णज्ञो सर्वेणैवैनं तच्छमयति स्वाहा कारेण जुहोत्यनिरुक्तो वै स्वाहाकारः सर्वं वा अनिरुक्तज्ञो सर्वेणैवैनं तच्छमयति यामुव अद प्रजापतिः प्रथमा माहुतिमजुहोत् स्वाहाकारेण वै तामजुहो सोऽस्विद्वा एषा निदानेन तस्मात् स्वाहा कारेण जुहोति तस्यां वरं ददाति सर्वं वै परस्सर्वेणैवैनं तच्छमयति तदाहुरेतामेवाहुतिज्ञो हुत्वेत्यथोत्तराणि हवि ज्ञोषिनाद्रियेते ते तयैव तं काममाप्नोति यस्मै काम योत्तराणि हवि ज्ञोषिनिर्वपेतेति स यदग्नये पवमानाय निर्वपति प्राणं वा अस्मिग्गुस्तद्दधात्यन्नं वै प्राणोऽन्नमु वा एषाहुतिस्तदेतयैवास्मिग्गुस्तद्दधाति अथ यदग्नये पावकाय निर्वपत्यन्नं वा अस्मिग्गुस्तद्दधाति प्रत्यक्षं वा एषाहुतिरन्नं तदेतयैवास्मिग्गुस्तद्दधाति अथ यदग्नये शुचये निर्वपति वीर्यं वा अस्मिग्गुस्तद्दधात्ते तद्धवा अस्य वीर्यग्नो शुचिय एषोच्चुरुज्ज्वलति तदेतमस्या य एषोच्चुरुज्ज्वलति तदेतस्यामेवहुतायामुच्चैस्तरमिवोज्ज्वलति वीर्यवत्तर इव भवति तदेत यैवास्मिग्गुस्तद्दधाति तस्मान्नाद्रियेतेत्याहुस्तदु निर्वपे देवं परोक्षमिवा एतत्तददस्तदीदमितीव यावद्वा अजातो गर्भो मातुर्वैव तावत्प्राणमनुप्राणिति यथा वा स यदग्नये पवमानाय निर्वपति प्राणो वै पवमानो जात एवास्मिग्गुस्तत्प्राणं दधाति अथ यदग्नये पावकाय निर्वपत्यन्नं वै पावकं जात एवास्मिग्गुस्तदन्नं दधाति अथ यदग्नये शुचये निर्वपति वीर्यं वा अस्मिग्गुस्तद्दधाति यदो वा अन्नेन वर्धतेऽथ वीर्यं करोति तदेन मे तदन्ने नैव वर्धयित्वाथास्मिन्ने तद्वि यज्ञो शुचिदधाति तस्मान्निर्वपे देव तद्व एतत्समानमेव सद्विपर्यस्तमिव यत्र हव अग्निर्देवेभ्यो मनुष्यानुपाव वर्तते तद्धेक्षाञ्चक्रेमैव सर्वे नेवात्मना देवेभ्यो मनुष्यानुपावृत्सीति सतिस्रस्तनु रपनिदध एषु लोकेषु तस्य यत्पवमनग्नोरूपमासास्यां तत्पृथिव्यां निदधे यत्पावकमन्तरिक्षे तद्यच्छुचिदिवि तदथ मनुष्यानुपाववर्त तदु हर्षयः प्रतिबुभुधिरे ये तर्हि मनुष्यानां ऋषय आसुरसर्वो वैनोऽग्निरुपाववृतीति तस्मा एतानि हवी ज्ञोषि निरवपन्न स यदग्नये पवमानाय निर्वपति एवास्यास्यां पृथिव्यां तनूस्तामि पतेनाप्नोत्यथ यदग्नये पावकाय निर्वपति एव स्यान्तरिक्षे तनूः पावकातामेव तेन प्नोत्यथ यदग्नये शुचये निर्वपति यैवास्य दिवि तनूः शुचिस्तामि पतेनाप्नोति तग्नो सर्वं कृत्स्नमग्निमनपनिहितमाधत्ते केवलबर्हिः प्रथमग्नो अविर्भवति समानबर्हिषि उत्तरे इमे वै लोका एतानि हविज्ञोषिषोऽयमद्धतमामिव लोको बहुलतम एव लेलयमि वेदमन्तरिक्षं लेल एव द्यौरुभे चिदेनं प्रत्युद्यामिनी भवतामिति स भारतायै अष्टाकपाला आग्नेयाः पुरोक्ताशा भवन्त्यष्टाक्षरा गायत्री गायत्रमग्नेश्चन्दस्वे नैवैनं तच्छन्दसा धत्ते तानि चतुर्विघ्नोशतिः सम्पद्यन्ते चतुर्विघ्नोशत्यक्षरा वै गायत्री गायत्रमग्नेश्चन्दस्वे नैवैनं तच्छन्दसा धत्ते गायत्र्यो या जानुवाक्या भवन्ति गायत्रमग्नेश्चन्दस्वे नैवैनं तच्छन्दसा धत्ते थैष एवादित्यश्चरुपरिष्टाद्भवति प्रच्यावयत इव हवा एषोऽस्मान्मनुष्यलोकात् देवलोकमभ्यात्मानं ये तानि हविज्ञोषि निर्वपत ऊर्ध इव हि समारोहन्नेतीयमुवा अदितिरियं प्रतिष्ठा तदस्यामेव प्रतिष्ठायामन्ततः प्रतिष्ठति तस्य विराजौ संयाज्ये स्याताम् विराधीयमित्यथो त्रिष्टुभौ त्रिष्टुभीयमित्यथो जगत्यौ जगति हीयमिति विराजोत्तेवस्थितम् तस्य धेनुर्दक्षिण धेनुरिव वा इयम् मनुष्येभ्यः सर्वान् काम दुग्धे सर्वान् वै कामान् धेनुर्दुग्धे मातेव वा इयं मनुष्याणां च पशूनां च मातेव धेनुस्तस्म तस्य धेनुर्दक्षिणैतन्वेकमयनम् अथ द्वितीयमग्नय एवाष्टाकपालं पुरोक्ताशं निर्वपति परोक्षमिव वा एतदग्नये पवमानायाग्नये पावकायाग्नये शुचय इत्यथा सैवं प्रत्यक्षमञ्जसाग्नि आहितौ भवत तस्य मुधन्वत्यौ याज्ञानुवाक्ये भवतोऽथैष एवादित्यश्चरुपरिष्टात्तस्यैषैव बन्धुतैषा दक्षिणा